सर्वेभ्यः नमः. महेश कश्यपमहोदय कृपया वदतु.
हा मेडम्. ॐ गणेशाय नमः. ॐ वागर्थाविव सम्प्रक्तौ वागर्थाप्रतिपत्तये जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ. ॐ येनाक्षरसमाम्न्याय मथिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. Sahana, what is missing in this file? Om Sahana Vavatu, Sahanau Bhunaktu, Sahaviryam Karavavahai, Tejasvinavadhitamastu, Mavidvishavahai. ॐ शान्ति शान्ति शान्तिः.
धन्यवादः. नमस्कारः सर्वेभ्य. अपि च सौन्दरं भगिनी नमस्कारः. श्रूयते वा सौन्दरं भगिनी? नमस्कारः, स्वागतम्. अस्तु अस्तु. गतवर्गे वयं किञ्चित् क्रियापदानि पठितवन्तः, अपि च किञ्चित् अभ्यास कृतवन्तः अभ्यासपुस्तकस्य. अहं सर्वान् म्यूट् करोमि. कृपया वक्तुम् इच्छति अन्म्यूट् स्टार् सिक्स् नोदयतु. अन्म्यूट् करोतु. अस्तु. गतवर्गे वयं किञ्चित् क्रियापदानि इति पठितवन्तः, अपि च अभ्यास कृतवन्तः. किञ्चित् पुनः स्मारयितुं कृत्वा वयम् अग्रे गच्छेम. अस्तु. एकमेकं वाक्यं वदति वा सर्वे सर्वे जनाः अत्र? लघुवाक्यं क्रियापदानि योजयित्वा अहं वदामि इति एकं लघुवाक्यमस्ति. अहं वदामि इत्युक्ते ऐ एम् स्पीकिङ्ग्. उत्तमम्. महेश महोदय, एकं लघुवाक्यं वदतु महोदय कृपया.
अहं पिबामि.
उत्तमम्. अहं पिबामि. अहं किं पिबामि? अहं
जलं पिबामि.
जलं पिबामि. उत्तमम्. अहम् उष्णजलं पिबामि. हाट् वाटर् ऐ लैक्.
हाट् वाटर्.
उत्तमम् उत्तमं महेश महोदय. अस्तु. अरुणा भगिनी.
सः पाठं लिखति.
सः पाठं लिखति. उत्तमं भगिनी. सः कः लिखति? सः पाठं लिखति. कथं वयम् इति वदामः? कः लिखति? कः किम् और् कः? किन्तु अत्र भवती पाठम् इति वदति. पाठम् इत्युक्ते पाठः. पाठः लिङ्गं कः?
पुंलिङ्गशब्दः.
तदेव वयम् इति वदामः. अहं कः पठति? अहं पाठं पठति. यदि न जानामि तदनन्तरं वयं किं यदि न जानामि, उत्तरं न जानामि किमपि कुत्रापि, तदनन्तरं वयं किम् इति योजयामः, नपुंसकलिङ्गे योजयामः. किन्तु यदि वयं जानामि, यदि जानीवन्तः ओ पुंलिङ्ग् अस्ति, ओ स्त्रीलिङ्ग् अस्ति, ओ नपुंसकलिङ्ग्, तदनन्तरं वयं उचित लिङ्गं रूपं वदामः. अस्तु, बहु बहु सम्यक्. अस्तु, अपर्णा भगिनी. अस्ति वा अपर्णा भगिनी?
अहं क्रीडामि.
उत्तमम्. अहं क्रीडामि इत्युक्ते
ऐ एम् प्लेयिङ्ग्.
उत्तमम् उत्तमं, बहु बहु सुन्दरं. साधारणतया वयं क्रीडामः कार्यं अतीव न कुर्मः अद्यतन. Nowadays we don't play enough, huh? mostly we're on the phone or some gadget.
Jangama duravani e upyoga karichi krida.
Jangama. Astu astu sundaram sundaram. Astu dhanyavada Aparna bhagini. Aham kridami. Aham kim kridami? किमपि क्रीडामि. अहं कन्दुकेन क्रीडामि. वदतु भगिनि.
अहं बास्केट्बाल् क्रीडामि.
अहं बास्केट्बाल् क्रीडामि. अहं कन्दुकेन क्रीडामि. यूसिङ्ग् अ बाल् ऐ एम् प्लेयिङ्ग्. कन्दुकेन विया बाल् द्वारा. कन्दुकम् इत्युक्ते बाल्, कन्दुकेन इत्युक्ते तृतीया विभक्ति इत्युक्ते
वित्
वित् अपि च द्वारा, बाल् द्वारा क्रीडामि. उत्तमम्. सौन्दरं भगिनि.
सा पश्यति.
का पश्यति? सा पश्यति.
सा दूरदर्शनं पश्यति.
सा दूरदर्शनं पश्यति. सा सूर्यं पश्यति.
सूर्यं पश्यति.
सा पशुः पश्यति. पशुं पश्यति. यदि सा बहुत्र वृक्षाः पश्यति, तदनन्तरं कथं वदामः? सा
बहुत्र
वृक्षः, मेनी ट्री. हौ विल् यू से? सा
बहुत्र वृक्षाणि.
वृक्षान् किमर्थं वृक्षान्? किमर्थम् अरुणा भगिनी, किमर्थं वृक्षान्?
वृक्षः अकारान्त पुंलिङ्गशब्दः, द्वितीया बहुवचनं वृक्षान्, न वृक्षाणि.
तृतीया न भगिनी, तृतीया
न वृक्षान्.
कर्मपदं कर्मपदम्. उत्तमं भगिनी. द्वितीय बहुवचन, द्वितीयविभक्ति इत्युक्ते कर्मपदं. कर्मपदम् इत्युक्ते
आब्जेक्ट्.
आब्जेक्ट्, आब्जेक्ट् इत्युक्ते रिसीवर् आफ् आक्षन् इत्युक्ते कर्मको. को किस्को देखा? पेडो को देखा. पेडो को इत्युक्ते वृक्षान्. यदि सा बालिकाः पश्यति, तदनन्तरं कथं वदामः?
बालिकाः पश्यति.
सा का पश्यति? हू इस् शी सीयिङ्ग्? one person. Sa ka pashyati? Who single feminine is she seeing? Correct?
Sa ka pashyati?
इत्युक्ते प्रथमविभक्ति किन्तु अत्र पश्यति इति सकर्मकक्रियापदमस्ति. सकर्मक इत्युक्ते इट् टेक्स् अ कर्मपदम्. देर् आर् सम् सो ऐ डोण्ट् नो इफ् ऐ हेव् स्पोकन् इन् दिस् क्लास् बट् ऐ विल् से अगेन्. Very, this is very general. Everything I say, you just enjoy. You don't have to worry, oh, I have to make notes, oh, I have to. It's always good. Always good to make notes. Always good to go further. But otherwise, just enjoy also is just as beautiful. So, Kriya Padani, Mukhyataya, Dve Varge, Dve, no, Dvau Vargau, Santi. Mostly they are in two groups. Of course, there are 10 classes of verbs in Sanskrit and all of that. And of course, there is Atmanepadi, Parasmaipadi, and Ubhaipadi. That is another distinction. So many kinds of distinctions or groupings of verbs have occurred and do occur because that exists. But I am talking of a very broad generalization, where verbs are divided into two sort of broad categories. Ekam sakarmaka apicha akarmaka. Sakarmaka ichukte, they take an object. What does that mean? So for example, if I say I am seeing, then immediately you can ask, Kim Pashyati? And the answer to Kim Pashyati will be, what will the answer to Kim Pashyati be? Some object. I won't have to think about it and say, oh my God, now this is a very hard question. How do I answer this? It doesn't even make sense. It's very simple. Kim Pashyati? Duradarshanam Pashyati. Balika Pashyati. Valikam Pashyati, Apicha Vrikshan Pashyati, Apicha Vriksham Pashyati, Kimapi Pashyati, something, some object is
Etat Pashyati.
Etat Pashyati, Uttamam Mahodaya, Napum Sakaling Asti Chet, Eka Vachanam Asti Chet, Etat Pashyati, Ye Dekh Rahi Ho, Ye Dekh Rahi Hai. अस्तु किन्तु अन्य क्रियापदानि अकर्मक सन्ति. अकर्मक इत्युक्ते कर्मपदं नास्ति स्वीकरोति, स्वीकुर्वन्ति. इत्युक्ते अहं खादामि. खादामि इत्युक्ते क्या खा रही है? ऐ केन् आन्सर् विद् अन् आब्जेक्ट्. किन्तु अहं is it Rudami? Rudami is Samyakva. Rudati. Aruna Bhagini is Samyakva. Rudami.
Kim Badati?
Rudati. Rudati. Rudami.
Rudami.
Saha Rudati. Ichukte, he is crying. Saha Rudati. You cannot ask, crying what? Kim rowing, like you cannot, that doesn't have an object. That action doesn't have an object. Aham charami. Aham sa chalati. She walks. Walks what? You don't walk anything. You just walk. You sleep, you just sleep. When you cry, you just cry. There is no object receiving that action. So some of the akarmaka kriya padam, they will not take dvitiya vibhakti in that sentence.
Aham gachami also come in the same category, madam.
Gachami atra I don't know if it has both. Some have both, Mahodaya. Aham samyak na janami. Kintu atra, let me just quickly see. So there is a beautiful website. I will now share with you. Maybe I have already shared. Ashtadhyayi.com. Very simple. A-S-H. Can you write it? A-S-H. Everybody write it. A-S-H-T-A-D-H-Y-A-Y-I. Ashtadhyayi.com. And in that, you simply type what you are searching. If you can write the root verb like gum, then gachati will come. All the forms of gachati. So go to the website. I will show you how beautiful website. Ati ati sundaram.
Can you once again say the spelling of it?
Maybe I can share it actually.
Email me preshitam amma.
Email
vargananantaram
avashya karomi kintu atra aduna
or in the chat you can clear paste the link.
Chat madhye
we got it madam.
Chat madhye click karotu atra gum iti aham अन्वेषणं करोमि. अत्र शीर्षिका च किं गम् गम् अधोभागे ध्वादिः पश्यति वा ध्वादिः एकदम गम् के नीचे देखिए छोटे अक्षरों में नीले अक्षरों में ध्वादिः इत्युक्ते भ्वादिगण अधुना त्यजतु फर्गेट् इट् रैट् नौ परस्मैपदी दिस् इस् वन् मोर् क्लासिफिकेशन् आफ् वर्ब्स् सर्वे पश्यन्ति वा
ऐ डोण्ट् सी गम्
गो टु चाट् भगिनी गो टु चाट् इन् अवर् online meeting, you know, free conference call, there is a small chat box at the bottom. You click on it and it will open a chat.
Parantu ashtadhya eva pachyami link name nama eva na gam.
You mean you cannot see chat in your window?
I see it, but I see only website address.
Click it bhagini.
अहं जानामि अहं प्रयुजतामि
सर्वथा.
सो एव्रिबडी सी इट्?
वि आर् एबल् टु ओपन् इट्.
अस्तु. सो बिलो गम् सो फर्स्ट् इस् गम् अधोभागे भ्वादिः इति एकः गणः अस्ति. अधुना त्यजतु परस्मैपदी एकमेव गुण अस्ति. अस्तु सकर्मकः महोदय भवता उत्तरम् अत्र सकर्मक इत्युक्ते अहं देवालयं गच्छामि. देवालयम् इत्युक्ते कर्मपदं द्वितीयविभक्ति. सकर्मकः गच्छति. अत्र लट् रूपाणि दत्तानि गच्छति गच्छतः गच्छन्ति. केन् यु डु स्क्रीन् शेरिङ्ग् अरुणा भगिनी रैट् नौ?
केन् यु शेर् युर् स्क्रीन्?
ऐ विल् डेफिनेट्लि शेर् रैट् इट् जस्ट् अकर्ड् टु मी ऐ केन् डु देट्.
ऐ डोण्ट् नो हौ टु डु देट्.
Bhagini, it will simply show up in your free conference call.
I can see now.
Aruna Bhagini?
Yeah. Aham pachyan.
Uttamam. So, beautiful this website. See, it says ashtadhyayi.com. That's all. Then, this rest of it will not be there. I typed in here. What did I do? Gum. you can type in English. If it is accurate spelling, it will show up. If it is not accurate, it will not show up. You have to get it exactly right. The other thing you can do, which I always like to do, is to go to Lexi Logos. You remember this one? So say you don't know, I don't know the root form of Gachati. Then you simply write down Gachati. Like this. Gachati. You bring it, you copy, and then you go to your Ashtadhyayi, and there you paste it. Like that. And see, it will come. There's some number is there. Adhuna Tyajatu, forget it right now. Gam, here it is. So now you are looking, and this is the meaning of the verb. Gam. Gatau. Gatau. Means to go. Always the meaning is given in Saptami. Always, consistently, the meaning of any verb in Sanskrit is given in Saptami. Saptami chukte kim?
Location.
Jane me. Matlab kya hua? Gam ka jane me. Jane me kyun? Why is it Saptami? Because every verb is only an experience, correct? जाने में जो आपको अनुभव होता है वो अनुभव की बात हो रही है गम में. नाउ यू क्लिक गम एंड सी. सो फर्स्ट गम, ऑफकोर्स फर्स्ट तस्मै पाणी नये नमः, ऑफकोर्स. देन वादिहि. वादि इत्युक्ते एक गण अस्ति, धातु गण अस्ति, धातोः गण अस्ति, धातोः दश गणः सन्ति. किन्तु अत्र त्यजामः परस्मैपदी, आत्मनेपदी, अपि च उभयपदी. त्रीणि त्री ग्रूप्स् आर् देर्, त्री वेज् आफ् लुकिङ्ग् एट् वर्ड्स्. परस्मैपदी, आत्मनेपदी एण्ड् उभयपदी. इत्युक्ते सम् वर्ड्स् बिलोङ्ग् टु परस्मैपदी एस् वेल् एस् आत्मनेपदी, बोत्. सो उभयपदी. देन् सकर्मक इत्युक्ते वित् कर्म पदम्. कर्मपदम् इत्युक्ते द्वितीयविभक्ति. को, कहाँ को जाना. जैसे हिन्दी में हम लोग बोलेंगे मैं विद्यालय जा रही हूँ. हम ऐसे नहीं बोलते विद्यालय को जा रहे हूं, नहीं बोलते हम लोग. बट लुक एट इट, द रूट कम्स फ्रॉम सकर्मक. मतलब हम लोग अगर बोले तो गलत नहीं होता शायद एक समय में, हु नोज. लेकिन मैं पेड़ को देख रही हूं. पेड़ को चुपते द्वितीय विभक्ति. ऑफन वॉट एवर इज योर मदर टंग, you in Indian mother tongue, if you use that, by and large it will give you the correct direction. If it is sakarmaka, akarmaka, mostly it will tell you correctly. Sometimes there will be some variation, just like in jana. I have heard some people say ko ja rahi hu, school ko ja rahi hu. I have heard that also. So sakarmaka atra. And here we have studied lat lakar so far. We have done gachati. So kriya padani gachati. Atra Mahesh Mahodaya. Prachatu bhagini.
So akarmaka and akarmaka, is it transitive and intransitive?
Yes. In English we call it transitive and intransitive.
Okay.
Correct, Bhagini. Transitive are those verbs that transit to an object.
Mm-hmm.
Intransitive are those verbs that do not transit to any object.
Right, thank you.
And how do you find out? In general, you can simply ask the question. Saw what? Saw a book. Kicked what? Kicked a ball. Wore what? Wore a pajama. drank what? Drank water. Slept what? I mean, it doesn't make sense, no? The question only doesn't make sense. Cried what? It doesn't make sense. So many are very clearly akarmaka and sakarmaka. Some are not so clear.
Okay, so is there any relationship between sakarmak, akarmak and artmanepadi and parasmaipadi?
No, bhagini, not like that.
Okay.
Not like that. Yeah, it's a good question though. Yeah. And sometimes what you think should be sakarmaka is not. And you wonder why it doesn't translate to and transit to an object. But that just shows, you know, when we question something, we are questioning because we are thinking in a certain language.
Mm-hmm.
And that same question may not even have any value in another way of thinking. Because that environment is not there. The different, every language creates its own thinking environment, its own thinking style. And so, when you find that some question is there, it doesn't exist in another language, it doesn't mean they are stupid and they don't have a question even. No, the surrounding itself does not, it clarifies that. Answer is already given in that. It's not as clear to you because you are not used to looking at it that way. So, like that, that's why I'm saying, whatever is your mother tongue, you should use that. More than English. अस्तु महोदय किमपि लघु वाक्यं रचयतु महोदय गच्छति इति योजयित्वा
अहं देवालयं गच्छामि
गच्छामि अस्तु महोदय यदि उत्तमपुरुष वाक्यमस्ति चेत् तदनन्तरं गच्छामि यदि मध्यमपुरुष अस्ति चेत् तदनन्तरम् एकवचन गच्छसि महोदय मध्यमपुरुष वदतु
गच्छसि
लघुवाक्यं वदतु
लघुवाक्यं तौ गृहं गच्छसि
तौ इत्युक्ते वचन कः
द्विवचन
किन्तु गच्छसि इति एकवचन एकवचनपदमस्ति समीकरोतु महोदय
गच्छसि इसको हिंदी में आप बता सकते हैं
हाँ गच्छसि जैसे आप जाइए तुम जाओ
भवान गच्छसि
किंतु भवान इति प्रथमा पुरुष स्वीकरो
प्रथमा पुरुष
स्वीकरो किन्तु अत्र त्वं त्वं गच्छसि
त्वं त्वं गच्छसि
त्वं 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 एव ओन्ली त्वं विल् कम् हियर् ओन्ली वन् वर्ड् विल् कम् इन् गच्छसि
त्वं गच्छतः
किमर्थं तौ गच्छतः किमर्थं तौ गच्छतः
दो लोग जा रहे हैं
उत्तमम् दो लोग तौ गच्छतः अपि च तौ गच्छतः दोनों में तौ लगता है व्हाई बिकॉज दोनों विभक्ति में वही रूप है तौ डज नॉट चेंज कर्मपदम अपि च कर्ता तौ तौ एव समान रूपम् अपि च ते
गच्छतः
न न ते
गच्छन्ति
ते गच्छन्ति
ते गच्छन्ति
अपि च अत्र गच्छतः तान् तान् वृक्षान् नरान् पाठान् स्यूतान् ग्रन्थान् अस्तु उत्तमम् अरुणा भगिनी किमपि वाक्यं लघुवाक्यानि रचयतु भगिनी
गम् दातु प्रयुज्वा
योजयित्वा अत्र नवरूपाणि दत्तानि अत्र किमपि किमपि योजयित्वा भगिनी
यूयं गच्छत
यूयं त्वं युवां यूयं यूयम् इत्युक्ते बहुवचनरूपं मध्यमपुरुष त्वं गच्छसि अत्र भगिनि
युवां गच्छतः
उत्तमं युवां गच्छतः अपि च
यूयं गच्छत
यूयं गच्छत यूयं गच्छत इत्युक्ते बहुवचन यू आल् यू आल् गो यू आल् गो यू बोथ् गो यू युवां युवां गच्छत अपि च त्वं गच्छसि उत्तमं भगिनी बहु सुन्दरं
मेडम् एक क्वश्चन्
पृच्छतु
त्वं युवां यूयं बोले न आपने
जी जी
यूयं बोले और जब मैं प्रश्न पूछ रहा था आप क्लैरिफिकेशन दिए इसको तेन करके न
ते ये गच्छन्ति
तेन
तेन न तेन इज तृतीय महोदय सो सः गच्छति क्षम्यतां महोदय इफ आई कॉज कन्फ्यूजन क्षम्यतां महोदय
इट्स ओके आई मेट हैव हर्ड इट रॉन्ग
न न न न न सः गच्छति बालकः गच्छति नरः गच्छति पशुः गच्छति तौ गच्छतः तौ इत्युक्ते दो लोग दो कोई भी जा रहे हैं गच्छतः ते गच्छन्ति ते इत्युक्ते वे वे ते गच्छन्ति और एषः गच्छति एतौ गच्छतः एते गच्छन्ति एते गच्छन्ति इत्युक्ते
यहाँ पे दो से ज्यादा लोग जा रहे हैं
उत्तमम् उत्तमम् अपि च त्वं गच्छसि इत्युक्ते
वो जा रहा है
वो न नो महोदय वो इत्युक्ते प्रथमपुरुष प्रथमपुरुष इज हु प्रथमपुरुष आपको और मेरे सिवाय कोई भी दुनिया में प्रथम पुरुष है
अच्छा
सब कोई आपको और मेरे सिवाय नॉट यू नॉट मी
ओके
व्हाई बिकॉज यू इज मध्यम पुरुष एंड मी इज प्रथम पुरुष इज उत्तम पुरुष
अच्छा
सो त्वं गच्छसि
तुम जा रहे हो
उत्तमम् उत्तमम् अत्र युवां गच्छतः इत्युक्ते
तुम दोनों जा रहे हो
उत्तमम् अपि च यूयं
यूयं गच्छतः
गच्छतः इत्युक्ते
दो से अधिक तुम लोग जा रहे हो,
तुम सब जा रहे हो,
तुम सब जा रहे हो,
गच्छतः अपि च अत्र
अहम्, अहम् गच्छामि
इत्युक्ते
मैं जा रहा हूँ,
मैं जा रहा हूँ या मैं जा रही हूँ, समान एव,
समान एव,
समान एव, समान एव। यदि यदि द्वे अस्ति तदनन्तरम्
आवाम्,
आवाम्, उत्तमं महोदय,
आवाम् गच्छावः,
आवाम् गच्छावः, आवाम् गच्छावः, आवाम् गच्छावः इत्युक्ते हम दो,
हम दो, हम दोनों जा रहे हैं,
हम दोनों जा रहे हैं, उत्तमम्। अपि च
यूयम्,
यूयम् अत्र मध्यम
पुरुषः, वयम्, वयम्,
वयम्, वयम्
गच्छामः,
महा, उत्तमम् इत्युक्ते
हम सब लोग जा रहे हैं,
हम सब लोग जा रहे हैं, उत्तमम्, उत्तमम्। आई थिंक
अभी क्लैरिटी मिल गया मैडम।
अस्तु अस्तु, धन्यवाद महोदय, समीचीन प्रश्न, वेरी गुड यू आस्क, बिकॉज विदाउट आस्किंग हाउ डू वी नो। अस्तु अस्तु अस्तु, अत्र अरुणा भगिनी किमपि अत्र अन्य वाक्य रचयतु भगिनी।
सः हसति,
हसति, उत्तमं। सः हसति इत्युक्ते
शि लाफ्,
शि नाम भगिनि,
नास्ति,
सः इत्युक्ते
सः, सः, हि,
हि, हि, ओन्लि हि,
हि
हि इत्युक्ते शि कथं वदामः,
सा हसति,
सा हसति, हसति समान एव, किमपि लिङ्गम् अस्ति चेत् समान एव। अस्तु, एकम् एकम् अपि च वदतु भगिनि, वन् मोर्,
वन् मोर्, सः
अत्र
नयति,
नयति, यानपेटिका नयति, किन्तु अत्र नवरूपाणि दत्तानि,
सः हसति, तौ हसतः, ते हसन्ति,
अग्रिमं,
त्वं हससि, युवां हसतः, यूयं हसतः, अहं हसामि, आवाम् हसावः, वयं हसामः,
हसामः, उत्तमं भगिनि, धन्यवादः। अपर्णा भगिनि,
आम्,
वदतु भगिनि,
किमपि शब्दः वा,
किमपि 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 क्रियापदं स्वीकरोतु, अपि च वाक्यानि रचयतु।
अहं पाठशालां गच्छामि,
अहं पाठशालां गच्छामि, पाठशालाम् इत्युक्ते
टु स्कूल्,
कर्मपदं,
कर्मपदम्,
उत्तमं, कर्मपदं, किमर्थं कर्मपदम्, अत्र सकर्मकः इति दत्तं, सकर्मकः दत्तं, तदनन्तरम् अहं पाठशालां गच्छामि, उत्तमम्। अग्रिमम्,
आवां पाठशाला, पाठशालां गच्छावः,
उत्तमम्, आवां पाठशालां गच्छावः, आवाम् इत्युक्ते
हम दोनों,
हम दोनों कहाँ जा रहे हैं,
पाठशाला को जा रहे हैं।
पाठशाला को जा रहे हैं। उत्तमम भगिनी, उत्तमम। अग्रिमम।
वयम पाठशालां गच्छामः।
वयम पाठशालां गच्छामः। इन क्लास व्हाट डू आई से? वयम किं कुर्मः? आई टॉक लाइक दैट। वयम पश्यामः, वयम वदामः। दिस इज व्हाट आई एम यूजिंग। आई एम यूजिंग दिस केस एवरी टाइम। वयम पठामः, वी स्टडी। वयम वदामः, हम लोग ऐसा बोलते हैं। कथम संस्कृत भाषायां कथम वदामः इत्युक्ते
कैसे बोलते?
हाँ, संस्कृत भाषायां, सप्तमी, संस्कृत भाषा में कैसे बोलते हैं? ऐसे बोलते हैं। दिस इज हाउ वी आर टॉट। दैट्स व्हाई आई आल्सो कॉपी दैट। इज अ ब्यूटीफुल वे टू लर्न बिकॉज लैंग्वेज इज द वे इट इज, यू नो। इस भाषा में कैसे बोलते हैं? ऐसे बोलते हैं। तो हम लोग कैसे बोलते हैं? ऐसे बोलते हैं, वदामः। द ब्यूटी अबाउट दिस इज ऑल्सो, जैसे इफ यू डोंट एड वयम हियर, यदि वयम हम वयम न वदामः तदनन्तरम् अपि गच्छामः एव अर्थ स्पष्टम्। बिकॉज गच्छामः विल ओनली गो विद वयम्। सी, गच्छामः विल ओनली गो विद वयम्। नो अदर सर्वनाम कैन कम हियर, नो अदर संज्ञा कैन कम हियर। इफ यू यूज गच्छामः, इट मीन्स वी ऑल गो। सो शुड आई पुट वयम गच्छामः? यू डोंट हैव टू, बट इन द बिगिनिंग यू नीड टू, बिकॉज इट विल मेक यू फेमिलियराइज विद द पैटर्न। सो दैट्स वाई समटाइम्स आई से संस्कृत भाषायां कथम वदामः इत्युक्ते संस्कृत भाषायां वयम कथम वदामः। समीचीनं वा? अत्र अपि च आवाम् इति अत्र पदस्य अर्थ साक्षात् अस्ति अत्र। इट् इस् आलरेडि पार्ट् आफ् द मीनिङ्ग्, आल् आफ् देम्, दि सिक्स् आर् पार्ट् आफ् द मीनिङ्ग्। इफ् ऐ सिम्प्लि से गच्छसि, गच्छसि एव, नो त्वं गच्छसि, गच्छसि एव इत्युक्ते किं? त्वं गच्छसि,
रैट्?
यदि अहं वदामः गच्छतः इत्युक्ते
युवां,
युवां गच्छतः। यदि अहं वदामः गच्छथ इत्युक्ते
यूयं,
यूयम्। इति आवश्यकम् अस्ति, देर् इस् नो अदर् वे। किन्तु प्रथमपुरुष किमपि अहं वदामः, सः गच्छति, एतत् गच्छति, सा गच्छति, बालकः गच्छति, वृद्धः गच्छति, अत्र किमपि वयं वदामः शक्नुवन्ति। किन्तु अत्र गच्छसि, गच्छतः, गच्छथ, गच्छामि, गच्छावः, गच्छाम इति न। भगिनी किमपि पूर्णं करोतु भगिनी, फिनिश योर सेण्टेन्स्।
ऐ थाट् ऐ फिनिश्ड् त्री सेण्टेन्स्।
यू सेड् आल् आल् नैन्?
नो, ऐ सेड् सिक्स्। ऐ डिड् नाट् डू द प्रथमपुरुष।
करोतु भगिनी।
सीता पाठशालां गच्छति।
उत्तमम्।
सीता गीता च पाठशालां गच्छतः।
उत्तमम्। सीता गीता च, किन्तु अत्र अतः यतः भवति गीता च इति उक्तवती, तदनन्तरं सीता गीता च पाठशालां गच्छति बिकास् हू इस् द कर्ता
both Sita and Gita.
No, Sita is the karta. She is going with her. But
karta I mean to say Gita and Sita.
Then you have to say Sita Gita cha. Not saha. You do not say saha. When you add saha, then you change the karta to the main person, because who is going with? The karta is only one, then you see. You said saha.
So it's Sita Gita cha paathshalam gachatah.
Uttamam bhagini. Uttamam. Spashtam bhagini.
Yeah, I think that's what I meant to say. Maybe I said it. Okay.
Maybe you said, I don't know. I think I heard saha, but I'm not sure. Uttamam.
Then, ते पाठशालां गच्छन्ति
उत्तमम् उत्तमं धन्यवादः भगिनी सौन्दर्यं भगिनी Soundaram Bhagini asti va?
I don't know how to come back. I mean screen. You are sharing the screen, no? You know how to come back.
You are not on the screen?
I am on the screen only. Okay. I'm getting confused from this class. It's due to me. I missed so many classes.
No worries.
I will guide. Full course and new to me. I didn't attend. I'm writing everything what all you were telling.
Chinta mastu bhagini. So kriya padam. Mahesh Mahodaya, kriya padam ichukte.
Verb, no? Kriya padam.
Verb.
It is.
Kriya padam means sentence.
Verb.
Sentence which is having.
Verb ichukte. Verb ichukte. Action word.
Action.
Where the action is. So often in any sentence, in every sentence, the single most important word is the verb. Almost always.
Okay.
Because it is the verb that we are always looking out for. Because that's the experience. I mean, most of us don't want to, you know, give a list of things. Most of us want to know what to do. So if I list out 20 things, you want to know, well, should I buy or should I not buy? Should I give or should I not give? Should I eat or should I not eat? Most of us are looking to see that. So it's a very important word called a Kriya Padam.
Kriya Padam.
Kriya Padam. Padam iti napum sakalinga padasya. So, padam, pade, apicha, padani.
Padani.
Padani asti chet, kriya padani.
Kriya padani.
Kriya padani. Kriya padani chukte, verbs. Plural. So, gachati chukte, so do you understand prathama purusha, madhyama purusha and uttama purusha? You understand?
Yeah, I understand.
So when you have prathama purusha, what does that mean?
Purusha means they, he, she, they.
In English they call third person.
Third person. But here in Sanskrit, first person we call
prathama purusha. First person. Bhagini, go back and listen to all the recordings. In the past, I have given elaborate. So I have given elaborate explanations on this beautiful concept of Prathama Purusha and Uttama Purusha in Sanskrit. I think it's one of the most beautiful things in Sanskrit. So go back and listen to those recordings, Bhagini. But quickly I'll tell you. So in Prathama Purusha, Saha, गच्छति. एकवचन अस्ति चेत् सः गच्छति. सो मच ध्वनि इस् देर्, वै इस् देर् सो मच ध्वनि? सौन्दर्यं भगिनी,
यस् मेम्,
आ लाट् आफ् ध्वनि इस् देर् इन् युर् हौस् ओर् इस् इट्
ईवन् औ मेडम्?
लिटल् बिट् बेटर्. अस्तु. सो सः गच्छति, सः गच्छति इत्युक्ते गच्छति. तौ गच्छतः इत्युक्ते दोस् टु गो. ते गच्छन्ति इत्युक्ते
all of them going.
Tvam gachasi ichukte,
tvam gachasi means you are going.
Yuvam gachathah ichukte,
yuvam gachathah means you two are going.
Yuyam gachathah ichukte,
you all are going.
Uttamam. Aham gachami ichukte,
I am going.
अपि च आवां गच्छावः इत्युक्ते अस्तु. अपि च वयं गच्छामः इत्युक्ते
वि आर् आल् गोयिङ्ग्.
तदेव भगिनी, दट्स् आल्.
जस्ट् यु आर् यु टाट् नौ नो ऐ हव् नोटेड् अण्ड् ऐ एम् क्लास् ऐ जस्ट् नोटेड्.
अधुना भवती वदतु भगिनी, योजयित्वा पठति, योजयित्वा सर्वाणि पदानि, सर्वाणि रूपाणि वदतु. लघुवाक्यं पठति वदतु भगिनी.
पठति
यूसिङ्ग् पठति, यु मेक् आल् द नैन्.
सः पठति, तौ पठतः, ते पठन्ति.
उत्तमम्.
अहं पठामि.
मध्यमपुरुष भगिनि, मध्यमपुरुष प्रथम.
त्वं पठसि.
उत्तमम्.
तौ पठत,
तौ न, तौ न भगिनि.
ओके ओके, सारी सारी.
युवां, युवां,
युवां पठतः, यूयं पठत.
उत्तमम्.
यूयं पठत. मध्यमपुरुष.
अधुना उत्तमपुरुष.
उत्तमपुरुष. सः पठति, तौ पठतः, ते पठन्ति.
ते पठन्ति. उत्तमम्. उत्तमं.
फेमिनिन् जेण्डर् शाल् ऐ टेल् मेडम्?
वदतु भगिनि.
सा पठति, पठति, ते पठतः.
उत्तमम्.
ताः पठन्ति.
उत्तमम्. अपि च मध्यमपुरुष इत्युक्ते
मध्यमपुरुषं. त्वं पठसि, तौ
तौ न भगिनि, तौ न.
ओके ओके.
युवां,
त्वं
युवां,
यु
त्वम् अत्र त्वं युवां, यूयम्,
त्वं युवां, यूयम्,
युवां, यूयम्. अत्र अहम्, आवां, वयम्. त्वं युवां, यूयम्, aham avam vayam. Uttamam.
Then tvam patasi, then yuvam madam, yuvam
yuvam patathah.
Patathah yuvam
yuvam
patata patata
patatha. Uttamam.
Okay. Sorry madam, next class I will be updated.
Na chinta mastu bhagini, chinta
mastu. I noted.
Astu api cha uttama purusha avagatam va?
Can you tell me in English madam? That's the problem, madam. I am not understanding.
Uttama purusha ichukte hindi nasti bhagini, sanskrit eva.
Uttama purusha means first person in Sanskrit. Uttama purusha
self
means third person in English, but we in Sanskrit it is first person. Uttama
purusha. Na bhagini, uttama purusha ichukte
prathama purusha, I am telling, no? Uttama purusha means my first person. I.
किन्तु उत्तमपुरुष संस्कृतभाषायां उत्तमम् अस्तु. त्रि किञ्चित् समय अस्ति. अहम् इति मन्ये एक लघु कथा श्रावयामि. एक लघु कथा सर्वे सर्वेभ्यः कृते अस्ति वा?
श्रावयामि मीन्स्
ऐ विल् नरेट्, ऐ विल् टेल्.
ओके ओके.
अहं वदामि, रैट्?
अहं वदामि, अहं वदामि, ऐ विल् स्पीक्, करेक्ट्. उत्तमम् उत्तमम् अस्तु.
मेक् यू लिसन्.
मेक् यू लिसन्. थेङ्क् यू भगिनि Aruna, bhagini. Make you shravayami. Make you listen means what? Narrate. Tell.
Okay.
Tell. If you tell means you are, it's, in English the meaning is slightly different, but make you listen is the best translation, bhagini. Uttamam. Dhanyavada, bhagini. Dhanyavada. Astu. Katha, shirshika, buddhiman, buddhiman, shishyaha. केवल शृणोतु. जस्ट् लिसन्, डोण्ट् वरि वेदर् यु आर् अण्डर्स्टाण्डिङ्ग् आर् नाट्, इट् विल् कम् टु यु, डोण्ट् वरि. डोण्ट् वरि, जस्ट् लिसन्. काशीनगरे एकः पण्डितः वसति. पण्डितसमीपम् एकः शिष्यः आगच्छति. आगच्छति, कम्स्, नाट् गोस्, कम्स्, आगच्छति. शिष्यः वदति. शिष्यः वदति. आचार्य, विद्याभ्यासार्थम् अहम् आगतः. विद्या अभ्यासार्थम् अहम् आगतः. उत्तमम्.
Shouldn't it be अहम्
आगच्छामि, आगच्छामि. This is different, so many ways to say, no, in every language. You'll learn this one also later. Don't worry.
If it is आगतः, I thought it refers to some other.
I have come, not I am coming.
Okay.
आगच्छामि means I am coming. Agatah, I, single male, have come.
Okay, I thought you were referring to Prathama Purushas, Ti, Tahat, Santi, right?
Good question. Okay. No, Bhagini. Agatah, good question. Panditah, Shishya Buddhi Parikshartham, Prichati. शिष्यस्य बुद्धि परीक्षा बुद्धि परीक्षार्थं पृच्छति. वत्स, देवः कुत्र अस्ति? देवः कुत्र अस्ति? शिष्यः वदति, गुरो देवः कुत्र नास्ति? देवः कुत्र नास्ति?
Where is God not?
Where is the place where that is not the case? Meaning everywhere, but that's not what he said. He said, Deva kutra nasti, kripaya bhavan eva samadhanam vadatu. Bhavan ichukte?
You.
आप कृपया आप कृपया भवान एव एव इत्युक्ते
यू ओनली
इसका
ना ना एव मीन्स ओनली मतलब आप ही एव अव्यय पदम अव्यय इत्युक्ते डजंट एवर चेंज कृपया भवान एव समाधानं वदतु. You only answer this question. Then, santushtah guruhu vadati. Devah sarvatra asti. Devah sarvavyapi. Tvam buddhiman. Atah vidyabhyasartham atraiva vasa. Atah isliye विद्याभ्यासार्थम् दस् फोर् द पर्पस् आफ् स्टडी अत्र इव हियर् ओन्लि अत्र एव एक्चुलि अत्रैव हियर् ओन्लि वस स्टे एण्ड् आफ् स्टोरि. लघु लघु कथा किन्तु किञ्चित् किञ्चित् सर्वे अवगतं वा?
केन् यू रीड् इट् वन् मोर् टैम् वितौट् इण्टरप्शन्?
अस्तु. बुद्धिमान् शिष्यः. काशीनगरे एकः पण्डितः वसति. पण्डितसमीपम् एकः शिष्यः आगच्छति. शिष्यः वदति, आचार्य विद्याभ्यासार्थमहमागतः. पण्डितः शिष्यबुद्धिपरीक्षार्थं पृच्छति, वत्स देवः कुत्र अस्ति? शिष्यः वदति, गुरो देवः कुत्र नास्ति? कृपया भवान् एव समाधानं वदतु. सन्तुष्टः गुरुः वदति, देवः सर्वत्र अस्ति, देवः सर्वव्यापी, त्वं बुद्धिमान्, अतः विद्याभ्यासार्थम् अत्रैव वस. Satisfied, happy, content, that this is a good student. You know, you have to always be tested by the teacher before teacher accepts, no? Nowadays, totally different. Nowadays, teachers are advertising. Whole culture is changing. But earlier, very difficult to enter a school because teachers want to see if they are good students only, not to make trouble. Astu adhuna viramamaha.
Tvam mean, Bhavan is a respectful way of saying Tvam.
Tvam ichukte Tum. Bhavan ichukte Aap, masculine. Bhavati ichukte Aap, feminine. Tvam ichukte Saman Eva, masculine, feminine.
Okay.
Astu adhuna viramama. Kupi prashna asti? सर्वेभ्यः धन्यवादः. अन्तिम
टैम् अण्टिल् 9:30, रैट्?
really?
Half an hour more, 25
minutes. Astu, astu. Dhanyavada, dhanyavada, bhagini. I'm confused always because in so many classes I am. Astu, astu. Okay, so we can now... किञ्चित् अग्रे सरेमः. ओके, अभ्यासपुस्तकं द्वादशतमपुटे. द्वादश इत्युक्ते 12 पुटसङ्ख्या 12. अस्तु. एक्चुलि त्रयोदश, अत्र त्रयोदश. ऐ थिङ्क् वि आलरेडि फिनिश् 2.2, करेक्ट्? 2.3. अस्तु. महेश् महोदय पठति वा?
पठामि. एतत् सम्भाषणं पठतु.
इत्युक्ते
एतत् यः यः पे
यः
यः यः सम्भाषणं कन्वर्सेशन्
विभक्तिका पठतु.
तृतीयविभक्ति
पठतु इति क्रियापदं.
पठतु क्रियापदम्.
अपि च पठति, पठ इति धातु सकर्मक.
अच्छा, सम्भाषणम् आपने पूछा ना.
सो इफ पठ इज अ सकर्मक धातु, देन व्हाट डू यू थिंक संभाषणम विभक्ति इज?
ये तो क्रिया हो जाता है.
क्रिया ना भगिन महोदय, क्रिया इत्युक्ते वर्ब. पठ इज अ क्रिया. पठतु इज लोट लकार, मीन्स सेइंग मे इट बी दैट यू स्टडी. स्टडी व्हाट?
संभाषण.
विभक्तिका सम्भाषणं
कर्म, कर्मपदं.
कर्मपदं,
कर्मपदं.
सो समटाइम्स यू कुड बी लाइक, बट सम्भाषणम् इज अ नपुंसकलिङ्गपदं. बोथ वेज, फर्स्ट एंड सेकंड विभक्ति, बोथ आर सेम. हाउ डू आई नो विच इज द विभक्ति? देन व्हाट डू यू डू? अष्टाध्यायी.com एंड यू लुक एट अकर्मक अपि च सकर्मक, करेक्ट? देन यू विल नो, ओ दिस इज अकर्मक, दिस इज सकर्मक, ओ पट इज सकर्मक. सो इफ इट इज सकर्मक, देन इट इज ओके टू यूज कर्मपदम. देर फोर मे बी दिस इज कर्मपदम. इट मेक्स सेन्स, देर फोर इट इज कर्मपदम.
अच्छा,
अस्तु. एतत् इत्युक्ते नपुंसकलिङ्ग. किमर्थम् एतत् महोदय? किमर्थं सः सम्भाषणं पठतु इति न दत्तम्?
बिकास् सम्भाषणम् इस् नपुंसकलिङ्गपदम्.
उत्तमं महोदय, तदेव, देट् इस् वै, करेक्ट्?
तदेव, तदेव.
उत्तमम्, उत्तमम्. अस्तु, अत्र वितारकः भवान् भवतु, यु बी द वितारकः. अपि च अरुणा भगिनी ग्राहकः. सम्यक् भगिनी, पठतु.
ऐ एम स्टार्टिङ्ग् फ्रोम् द वितारकः.
वितारकः इत्युक्ते
सर्वर्.
सर्वर्, सर्वर्. पठतु महोदय.
भोः किम् आवश्यकम्?
अरुणा भगिनी.
ग्राहकः काफी आवश्यकम्.
जलम आवश्यकम किम
मास्तु काफी आवश्यकम आवश्यकम
स्वीकरोतु
किंचित शर्करा आवश्यकम
स्वीकरोतु पुनः आवश्यकम वा
पर्याप्तम पुनः मास्तु
उत्तमम उत्तमम अस्तु अधुना पंक्तिशः वयं पुनः पठामः लाइन बाय लाइन वी विल स्टडी अगेन वितारकः इत्युक्ते सर्वर वितारकः भोहो इति अव्ययपदम् इट्स लाइक अ कैजुअल ग्रीटिंग भोहो कैजुअल ग्रीटिंग भोहो किम् आवश्यकम् इत्युक्ते क्या चाहिए प्रश्नवाचक वाक्यम् किम् आवश्यकम् इति नपुंसकलिङ्ग पदमस्ति तदनन्तरं किम् आवश्यकम् किम् आवश्यकम् ग्राहकः काफी आवश्यकम् क्या चाहिए काफी चाहिए वितारकः जलम् आवश्यकम् किम् इत्युक्ते
I need coffee.
पानी आवश्यक है क्या
पानी भी चाहिए क्या पानी चाहिए क्या पानी चाहिए क्या ग्राहकः मास्तु मास्तु इच्छुक्ते
नहीं
नो बट ही डिडंट से न ही सिंपली सेड मास्तु मास्तु इच्छुक्ते
नॉट रिक्वायर्ड
नॉट रिक्वायर्ड बट इट्स व्हाट लकार लकार
लोट लकार
लोट लकार इच्छुक्ते मास्तु इच्छुक्ते भगिनी
Let it not.
Let it not be.
Let it not be.
Mastu. Let it not be. Mastu. Let it not be. Again he repeats. Grahaka punaha vadatu. Vadati kaphi avashyakam. Vitarakaha kim vadati tadanantaram?
Svikarotu.
Lakara kim?
लोट लकार
पुरुष अपि च वचन
एकवचन
प्रथमपुरुष एकवचन
प्रथमपुरुष एकवचन
किमर्थं प्रथमपुरुष अस्ति अत्र दे आर् यू एण्ड् ऐ आर् टाकिङ्ग् है न ओन्ली टु पीपल् आर् टाकिङ्ग् किमर्थं प्रथमपुरुष आगच्छति अत्र
server talking to the customer so
kimartham prathama purusha kimartham atra agachati why did the third person come here
because for him he is the third person
no swikarotu
madhyama purusha
no
kintu swikarotu iti rupam prathama purusha rupam asti किमर्थं प्रथमपुरुष अत्र आगच्छति किमर्थं मास्तु इति सम्यक् वै इस् मास्तु करेक्ट् मास्तु अपि च प्रथमपुरुष एकवचन
ऐ थिंक इन लोट लकार इट इज दैट वे
बट वै प्रथमपुरुष महोदय वै ही डिडंट से स्वीकरोषि Tvam Svikaroshi. Why he didn't say that?
It's with respect.
With respect, second
person.
So he's addressing them, addressing as though he's addressing many people with respect.
It's like as if many people was like same as Bhavan and Bhavati.
Bhavan, Bhavati.
Bhavan and Bhavati. Take which case? They take Prathama Purusha. सर्वदा ऑलवेज सर्वदा यदि वितारकः त्वं स्वीकरोषि इति वदति चेत् तदनन्तरं मध्यमपुरुषः अस्ति किन्तु अत्र न इन्फेक्ट् यु डोण्ट् एक्स्पेक्ट् वितारक टु से तुं लो मोस्ट्लि दे विल् से आप् लीजिये नो इन् इन् योर् रेस्टोरेण्ट् वट् विल् दे से आप् लीजिये नो दे विल् मोस्ट्लि नाट् यूस् तुम् In fact, the grahaka can use tum on the server, which also should not be the case, but they can. More likely that is the case. But here, so swikarotu, rachayatu, pathatu, vadatu. I use that all the time now? In class, why do I use it? Because I am calling you as bhavan apicha bhavati. एकवचन द्विवचन बहुवचन अस्ति चेत् पठन्तु वदन्तु हसन्तु लिखन्तु इति रूपम् स्वीकुर्वन्तु May all of you accept. Svikurvantu. May all of you read. Pathantu. May all of you laugh. Hasantu. May all of you write. Likhantu.
Does ashadhyayi.com have all those?
Okay. Now go back to Ashtadhyayi, everybody. Ashtadhyayi, what will we say? Which one you want to search, Bhagini?
Let's say Lot Lakara for Bhavan.
Bhavan is not a Kriya Padam, na, Bhagini? You have to look. Ashtadhyayi will only look at Kriya Padam.
Kriya Padam.
So which Kriya Padam you want to see?
Pat.
Okay, so we'll do pat. Let me try English pat. Look. I tried P-A-T-H, pat. And so many have come. Now, which one you think is ours? First, second, third or fourth?
First one.
Atra patham vyaktayam vachi arthah. Pat. Isse hum log ka pat banta hai. गतौ देखो रास्ते इसका मतलब अलग हो गया द मीनिंग हैज चेंज्ड हियर राइट दिस मतलब इज द सेम एज गम राइट गतौ पथ अन्य पथ अस्ति प्रक्षेपे अन्य पंथ पंथ अपि च गतौ एंड लुक हाउ मेनी डिफरेंट काइंड्स ऑफ वर्ब्स देयर आर ऑल आर सकर्मक टू आर परस्मैपदी टू आर उभयपदी Two are churadi gana, two are bhavadi gana. All we need to know is this one. So, this number, I told you, the verbs are divided into 10 ganas. Dasha gana santi. Kriyapadani dasha gana santi. And this first number before the dot tells you which of the 10. So, this is the first gana. Which one? Bhavadi gana. You don't need to know all this, but later on, when you are learning bhavadi gana, or somebody starts to teach you, when the class moves forward, and eventually we start to understand what ganas are, then you will remember. Oh, that's what that meant. Right now, let this knowledge just sit in your brain, and if it disappears, no problem. Prathama gana bhavadi.
Kya matlab hai?
Forget it. Adhuna tyajatu bhagini.
Okay.
Adhuna tyajatu. This also I am not telling you what it is. I am simply telling you numbers here. So 0-1 means bhuadi. Every time there is 0-1 here, it will be bhuadi. Bhu adi gana. Bhu ichukte to be. Bhavati. तो भू आदि बिकम्स भ्वादि, भू जैसे गण जो है, भू जैसे क्रियापदम इसमें आते हैं। अगेन 01 भ्वादि ही। देन टेंथ गण इज चुरादि, चुर धातु, सो चुरादि ही। This one also is 10, this one is also. Every time there is 10 here, you will find this is Churadi. Everything else can change. But this number, the first number, will always correspond with one particular name of the Gana. Alright, so let us go to Pat. Now we can look up Lot. Look, here we are. Lot. Patatu Prathama Purusha Eka Vachana. द्वे रूपे स्थः पठतु अपि च पठतात्, पठतात् विरल उपयोग, इट्स नॉट यूज्ड एज मच इन लिटरेचर और इन स्पीच, आई डोंट नो व्हाई, सिंपली इज नॉट, बट इट एग्जिस्ट। व्हाई डू ऑल दीज ऑल्टरनेटिव फॉर्म्स एग्जिस्ट? बिकॉज इन एनी लैंग्वेज सो मेनी वेज टू से द सेम थिंग एग्जिस्ट। The richer the language, the more subtle differences are there in saying the same. Main thing is the same, but small subtle nuances will be there, differences will be there. So, pathatu iti prathama purusha eka vachana rupam. Pathantu. Pathantu. Te pathantu. Let it be, may it be that they study. Pathantu. So when I ask all of you, then what will come? Pathantu, Rachayantu, Pashyantu. But usually I talk to one person. If I am speaking one-on-one, then I will say Pathatu, Vadatu. Then Tvam Pat. पठ, तो भवान पठतु अपि च भवती पठतु, त्वं पठ, अहम पठानी। व्हाट डज अहम पठानी मीन देन इन लोट?
लेट मी स्टडी।
लोट इज लाइक आज्ञा एंड प्रार्थना ना, ये देखिए स्वयं के लिए भी प्रार्थना ही है। We treat ourselves the same.
Can it also mean I have to study? So when you're ordering.
No, order does not exist in Sanskrit. Can you believe that? There is no lakara for order. Lot is there and vidhi is there. Vidhi is also very, very polite. In fact, a little bit more polite. Lot is, may it be that you, by you, some studying is done. See, I think the rishis realize you cannot make anybody do anything. Have any of you realized that? You cannot make anybody do anything. You can barely make yourself do some of the things you want to do. So that is not an option. That's not a reality. They realize, the rishis realize that. So the grammar is structured accordingly. The grammar says, may it be that this happens by means of your action. That's what it means. Let it be that this be the case, is how it is said. But in English, I mean, such construction is never heard of. In fact, in Shakespearean English, if some of you have read his plays, in school we were reading them, I don't remember which grade, high school maybe. We used to read Shakespeare plays, and his language had a lot of the beautiful nuances that English, current, modern, especially American English does not have. English from like England is a little bit different, but American English is very, cut and dry, very cut and dry as a language, but very functional, very transactional actually. Every conversation has a transactional, underlying fundamental sort of meaning. Sanskrit is the opposite. It understands that nothing in life is transactional. So the grammar itself, that's why I'm saying, when you start to think in a certain language, the way you think changes. The same concepts, I'm not saying that if you are a believer in the healthcare system in one language, you will not be in another. No. Your ideas may be the same, but the way you approach that idea will be totally different depending on the language you use. The way you think in English is totally different from the way you dream in your mother tongue. Observe that in yourself. So similarly here, lot is a, it is translated in grammar, Sanskrit grammar books, as imperative. What does imperative mean? Imperative means command. It means order and command, but that doesn't exist in the language of Sanskrit. You cannot command or order anybody. So this translation into imperative itself is inaccurate. But what do? That's the word in English. So you are, each language will limit it. Limit any other language. So everything will be somewhat changed in any translation. You translate English to Sanskrit, things will change. You translate Sanskrit to English, things will change meaning. But if you are studying via Sanskrit via English, then it will be called imperative. That's the grammatical term. But what is your mother tongue, Soundaram Bhagini?
Tamil, madam.
Tamil. You should study Sanskrit through Tamil, Bhagini. You will find it is so much easier.
Yes, there are books. Is there any class?
No, classes I don't know, Bhagini. Kintu, Bhagini, books are there, Tamil to Sanskrit.
Okay.
So whatever this Abhyasa Pustakam, something like that, will be there from Tamil to Sanskrit.
Okay.
Like Kannada to Sanskrit, many books are there, correct? Sanskrit Bharati is stationed in Bangalore. So many texts are there. Even the exams they conduct have Kannada as well as English. Hindi to Sanskrit is also there. I have seen Tamil to Sanskrit. I have seen Marathi to Sanskrit. So Telugu has to be there, Bhagini. You simply search.
I don't think so. I didn't see anything Telugu to Sanskrit.
Aruna Bhagini,
I speak Telugu, but I don't remember seeing anything in Telugu.
Have you asked Vidya Bhagini?
I will ask her.
Ask Vidya. I don't know her mother tongue. Is it Telugu? Maybe. You know who knows? Lakshmi Bhagini might know. You know Lakshmi Bhagini, the teacher? Aruna Bhagini?
Yeah.
You are in that class, no?
Yes, I'm in that class.
Ask Lakshmi Bhagini. Just email her and ask her. There are books in Kannada to Sanskrit. Are there books that teach Sanskrit through Telugu medium? And she will know better than me, Bhagini. Please ask and then please share with us.
Sanskrit teachers tell me, you think in Telugu, in your language, then translate will be easier.
Always.
You think English and you try to translate, doesn't come out right.
It doesn't come out. It's so true, Bhagini. So true. I'm glad you also feel that way. I have also started to... You know, I spent years learning Sanskrit through English.
Yeah.
Almost 10 years. And I made very little progress. This Sanskrit I started, like with spoken Sanskrit, this the way that we are working with Mahodaya now, this Sanskrit group. I started only last year, April. And because I'm using Hindi, it comes so fast. Because I'm thinking in Hindi, is my mother tongue, so I'm thinking in Hindi, and the conversions and all the meanings, it comes so easy. Of course, some problems are there, some distinctions are there, some patterns, many patterns have been lost, but still. So always return to your mother tongue, Bhagini. Astu. So now you see pathantu. So pathani is like, let it be that I study. That means you are encouraging, permitting, inspiring yourself to study rather than saying, oh, I need to study. I need to study in Sanskrit is a very harsh statement. But in English, that's the common translation in books. Another translation I have seen for Aham Pathani is, if you ask it in a question form, Aham Pathani va, like in a question form, it becomes, well, should I study? Should I let it be that I study? Like that. But the fact that it exists for Uttama Purusha itself, it doesn't exist in English, I don't think. I don't think some concept is like that for like I, imperative for the self. There's not a grammatical thing in English for it. So, but this ashtadhyayi.com is a wonderful website. I use it all the time because I'm also learning only. I'm also just a student. Astu. Astu. So then back to, let us finish this conversation. Svikarotu. Now you see where Svikarotu comes from. Bhavan Svikarotu. Atra. Bhavan Pathatu. Astu. Then Kinchit Sharkara. Purnataya Vadatu Aruna Bhagini Vakyam. किञ्चित् शर्करा इति दत्तं पूर्णतया वाक्यं वदतु. किञ्चित् शर्करा आवश्यकं वा? किञ्चित् शर्करा आवश्यकं किम्? प्रश्नवाचक. किञ्चित् शर्करा आवश्यकं. शर्करा इत्युक्ते शुगर्. स्वीकरोतु. He gives him sugar. Then punah avashyakam va, again dubara chahiye kya? Punah avashyakam va.
Paryaptam.
Enough. Paryaptam. Paryaptam ichukte?
Enough.
Enough. Paryaptam. Punah mastu, again lot lakar. Punah iti avyaya padam. It will not change. Punah. Again, it will not change. Astu. Astu. Uttamam.
Avishakam api avyaya padam.
Avashakam aham manya iti na kintu.
Avashakaha.
Yeah, no, na. Na, na magini. Avashyaka iti adjective. Visheshanam.
Tadantaram kinche sharkara avashyaka.
Sharkara avashyaka va. Bhagini. Kinchit sharkara avashyaka va. Astu bhagini. Samichinam. Samichinam. Dhanyavada. Astu. Astu. Kopi prashna asti?
I put.
Vadatu bhagini?
Na. Shamyatam.
So if it is a masculine pulinga shabda, kinchit some masculine word, then it will become avashyakaha va.
Avashyakaha va.
Okay.
विशेषणम् अस्ति.
आवश्यकः, आवश्यका, आवश्यकम्.
बिकास् इट् इस् एड्जेक्टिव्, रैट्? अस्तु अस्तु अस्तु. अधुना विरमामः. अपर्णा भगिनी, शान्तिपाठ वक्तुमिच्छति वा?
ॐ पूर्णमदम् ऐम् सारी ॐ पूर्णमदः पूर्णमदम् पूर्णात् पूर्ण पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः
बहु धन्यवादः सर्वेभ्यः किञ्चित् विलम्बेन अधुना अहं क्षम्यताम् अस्तु